హవామహే కవిం కవీనాముపమశ్రవస్తమం జ్యేష్ఠరాజం బ్రహ్మణా బ్రహ్మణస్పత ఆన శృణ్వన్నోతిభిః శ్రీరసాదనం ప్రణో దేవే సరస్వతీ వాజేభిర్వాజినేవతే ధీరామవిత్రయవతో గణేశాయ నమః సరస్వత్యై నమః శ్రీగురుభ్యో నమః హరిః ఓం ఓం నమో భగవతే రుద్రాయ ఓం నమస్తే రుద్రమన్యభూత ఇషవే నమః నమస్తే అస్తు ధన్వనే బాహుభ్యాముతతే నమః యాషు శివతమా శివం బభూవతే ధనుః శివాశరవ్యాయాతవతయా నో రుద్రమృడయా యాతే రుద్ర శివా తనోరఘోరా పాపకాశినీ తయానస్తను వాశంతమయా గిరిశంతాభిచాకషే యామి శృంగిరిశంత హస్తే బిభర్షస్తవే శివాంగిరిత్రతాం కురు మాహిగుం శ్రీ పురుషం జగత్ శివేన వచసా త్వా గిరిశాచ్చావదామసి యథా నః సర్వమిజ్జగదయక్ష్మగుం సుమనాసత్ అధ్యవోచదధిభక్తా ప్రథమో దైవ్యాభిషక్ అహేగశ్చ సర్వాన్ జంభయన్ సర్వాశ్చ యాతు ధాన్యః అసౌ యస్తామ్రో అరుణ ఉత బభ్రుస్సు మంగళః యే క్షేమాగుం రుద్ర అభితో దిక్షు శ్రుతా సహస్రశో వైశాగుం హేడయే మహే అసౌవ్యో వసర్పతి నీలగ్రీవో విలోహితః ఉతైనం గోపా అదృశన్నదృశన్నుదహార్యః ఉతైనం విశ్వా భూతాని సదృష్టో హృదయాతినః నమో అస్తు నీలగ్రీవాయ సహస్రాక్షాయ మీడుషే అథో యే అస్య సత్వానో హంతేభ్యో కరన్నమః ప్రముంచ ధన్వనస్త్వముభయోరాత్నియోర్జ యాశ్చ దేహస్తైషవః పరాతా భగవోవప అపతత్య ధనుస్వగుం సహస్రాక్షశతేషుధే నిషేర్య శల్యానాం ముఖా శివో నః సుమనాభవ విద్యం ధనుః కపర్దినో విశల్యో బాణవాగుం హుత అనేషన్నస్యేషవాభురస్య నిషంగతిః యాతే హేతిర్మీఢుష్టమహస్తే బభూవతే ధనుః తయాస్మాన్ విశ్వతస్త్వమయక్ష్మయా పరిభుజా నమస్తే అస్తాయుధాయానాదతాయ ధృష్ణవే ఉభాభ్యాముతనే నమో బాహుభ్యాం తవ ధన్వనే పరితే ధన్వనో హేతిరస్మాన్ ఋణక్తు విశ్వతః అథో యయిషుధిస్తవారే అస్మన్నిధేహితం नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्रयम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदा शिवाय श्रीमन्महादेवाय नमः नमो हिरण्यवाहवे सेनान्ये दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः सस्मिञ्जराय त्विषेमदेवधीनां पतये नमो नमो बभ्रुषाय व्याधिनेन्नानां पतये नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये नमो नमो भवस्य हेत्यै जगतां पतये नमो नमो रुद्रायाततामिने क्षेत्रानां पतये नमो नमः सूतायाहन्त्याय वनानां पतये नमो नमो रोहिताय स्थपतये वृक्षाणां पतये नमो नमो मन्त्रिणे वाणिजाय कक्षानां पतये नमो नमो भुवन्तये वारिवस्कृताय औषधीनां पतये नमो नम उच्चैर्घोषाय क्रन्दयते पत्थीनां पतये नमो नम कृष्णवीताय धावते सत्त्वनां पतये नमः नमः सहमानाय निव्याधिनः व्याधिनीनां पतये नमो नमः ककुभाय निषङ्गिणे सेनानां पतये नमो नमो निषङ्गिण इषुधिमते तस्कराणां पतये नमो नमो वञ्चते परिवञ्चते स्तायूनां पतये नमो नमो निचेरवे परिचरायारण्यानां पतये नमो नमः श्रिकाविभ्यो जिघांसद्भ्योष्णतां पतये नमो नमो श्रीमद्भ्यो नक्तं शरद्भ्यः प्रकृन्तानां पतये नमो नम उष्णीषिणे गिरिशराय कुलुञ्जानां पतये नमो नम यशोमद्भ्यो धन्वाविद्भ्यश्च वो नमो नम आदन्वानेभ्यः प्रतिदधानेभ्यश्च वो नमो नम आयच्छद्भ्यो विषुजद्भ्यश्च वो नमो नमोऽस्यद्भ्यो विद्यद्भ्यश्च वो नमो नम आसीनेभ्यः शयानेभ्यश्च वो नमो नम स्वप भ्यो जाग्रद्भ्यश्च वो नमो नमस्तिष्ठद्भ्यो धावद्भ्यश्च वो नमो नमः सभाभ्यः सभापतिभ्यश्च वो नमो नमो अश्वेभ्योऽश्वपतिभ्यश्च वो नमः नमः आव्याधिनेभ्यो विविध्यन्तेभ्यश्च वो नमो नम उगणाभ्यस्त्रगुंहतेभ्यश्च वो नमो नमो कृत्सेभ्यो कृत्सपतिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः शुल्लकेभ्यश्च वो नमो नमो रथिभ्यो रथेभ्यश्च वो नमो नमो रथेभ्यो रथपतिभ्यश्च वो नमो नमः सेनाभ्यः सेनानिभ्यश्च वो नमो नमः शत्रुभ्यः सङ्ग्रहीतृभ्यश्च वो नमो नमस्तक्षद्भ्यो रथकारेभ्यश्च वो नमो नमः కులాలేభ్యః కర్మారేభ్యశ్చ వో నమో నమః పుంజిష్టేభ్యో నిషాదేభ్యశ్చ వో నమో నమః యశోకృద్భ్యో ధన్వకృద్భ్యశ్చ వో నమో నమో మృగయోభ్యశ్వనిభ్యశ్చ వో నమో నమః శ్వభ్యశ్వపతిభ్యశ్చ వో నమః నమో భవాయ చ రుద్రాయ చ నమః శర్వాయ చ పశుపతయే చ నమో నీలగ్రీవాయ శశితికంఠాయ చ నమః కపర్దినే చ వ్యుక్తకేశాయ చ నమః సహస్రాక్షాయ చ శతధన్వనే చ నమో గిరిశాయ చ శిపిభిష్టాయ చ నమో మీఢుష్టమాయ చేషుమతే చ నమో హ్రస్వాయ చ వామనాయ చ నమో బృహతే చ వర్షీయసే చ నమో వృద్ధాయ చ సంవృద్ధ్వనే చ నమో అగ్రయాయ చ ప్రథమాయ చ నమః ఆశవే చాధిరాయ చ నమః శీఘ్రయాయ చ శీభ్యాయ చ నమః ఊర్మ్యాయ చ వస్వన్యాయ చ నమః శ్రోతస్యాయ చ ద్వీప్యాయ చ నమో జ్యేష్ఠాయ చ కనిష్టాయ చ నమః పూర్వజాయ చ పరజాయ చ నమో మధ్యమాయ చ పగల్భాయ చ నమో జగన్యాయ చ బుద్ధ్యాయ చ నమః సోభ్యాయ చ ప్రతిశర్యాయ చ నమో యామ్యాయ చ క్షేమ్యాయ చ నమః ఉర్వర్యాయ చ కళ్యాయ చ నమః శ్లోక్యాయ చ వసాన్యాయ చ నమో వన్యాయ చ కక్ష్యాయ చ నమః శ్రవాయ చ ప్రతిశ్రవాయ చ నమః ఆశుషేనాయ చాశురథాయ చ నమః శూరాయ చ వభిందతే చ నమో వర్మిణే చ వరోధినే చ నమో బిల్మినే చ కవచినే చ నమః శ్రుతాయ చ శ్రుతసేనాయ చ నమో దుందుభ్యాయ చ హనన్యాయ చ నమో కృష్ణవే చ ప్రమృషాయ చ నమో దూతాయ చ ప్రహితాయ చ నమో నిషంగినే చేషుధిమతే చ నమః తీక్ష్ణేశవే చాయుధినే చ నమః స్వాయుధాయ చ సుధన్వనే చ నమః శ్రుత్యాయ చ పథ్యాయ చ నమః కాఠ్యాయ చ నీప్యాయ చ నమః సూద్యాయ చ సరస్యాయ చ నమో నాద్యాయ చ వైషంతాయ చ నమః కూప్యాయ చ వట్యాయ చ నమో వశ్యాయ చ వశ్యాయ చ నమో మేఘ్యాయ చ విద్యుత్యాయ చ నమః ఈంద్రియాయ చ తప్యాయ చ నమో వాత్యాయ చ రేష్మ్యాయ చ నమో వాస్తవ్యాయ చ వాస్తుపాయ చ ఓం హర 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 ఓం నమః సోమాయ చ రుద్రాయ చ నమః తామ్రాయ చ రుణాయ చ నమః శంగాయ చ పశుపతయే చ నమః ఉగ్రాయ చ భీమాయ చ నమో అగ్రే వధాయ చ దూరే వధాయ చ నమో హంత్రే చ హనీయసే చ నమో వృక్షేభ్యో హరికేశేభ్యో నమస్తారాయ నమః శంభవే చ మయోభవే చ నమః శంకరాయ చ మయస్కరాయ చ నమః శివాయ చ శివతరాయ చ నమః తీర్థాయ చ కూల్యాయ చ నమః పార్యాయ చ వార్యాయ చ నమః ప్రతరణాయ చోత్తరణాయ చ నమః ఆదార్యాయ చ లాద్యాయ చ నమః షష్ప్యాయ చ పేన్యాయ చ నమః శిఖత్యాయ చ ప్రభాగ్యాయ చ नमः हिरण्याय च प्रपथ्याय च नमः किगुंशिलाय च क्षयनाय च नमः कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमः सल्प्याय च गेह्याय च नमः काट्याय च गौहरेष्ठाय च नमो हृदय्याय च निवेश्याय च नमः पागुंसव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ऊर्व्याय च सूर्म्याय च नमः पर्ण्याय च पर्णशद्याय च नमोपगुरमानाय चाभिघ्नते च नमः आखिदते च प्रखिदते च नमोपकिलिकेभ्यो देवानागुं हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विजन्वत्केभ्यो नमः निर्हतेभ्यो नमः आमेवत्केभ्यः द्राभे अन्धसस्पदे दरिद्रन्नीललोहिता येषाम् पुरुषाणामेषाम् पशूनाम् माभिर्मा रोमो येषाम् किञ्चनाममत या ते रुद्रशिवा धनो शिवा विश्वा भेषजे शिवा रुद्रस्य भेषजेतया नो मृडजीवसे इमागुं रुद्राय तवसे कपर्दिने क्षयद्वीराय प्रभरामहे मतिम् यथा नश्यमसद्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् मृडानो रुद्रोतनो मयस्कृधि क्षयद्वीराय नमसा विधेमते यच्छं च यो शमनुरायजे पिता तदश्याम तव रुद्र प्रणीतौ मानो महान्तमुतमानो अर्भकम् मान उक्षन्तमुतमान उक्षितम् मानो वधे पितरम् मोत मातरम् प्रियामानस्तनुवो रुद्ररीर्षः मानस्तोकेतनये मान आयुषि मानो गोषु मानो अश्वेषुरीर्षः वीरान्मानो रुद्रभामितो वधेर्हविष्मन्तो नमसा विधेमते आराध्ये गोघ्न उत पोरुषग्ने शयद्वीराय सुम् नमस्मे देवस्तु रक्षा च नो अधि च देव ब्रूयता च नः शर्म यच्छद्विबर्हाः सुहिश्रुतम् अर्धसदयुवानम् मृगन्न भीममुपहद्नमुग्रम् मृडा चरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेनाः परिणो रुद्रस्य हेतर्वृणक्तु परित्वेषस्य दुर्मदिरघायोः अवस्थिरा मघवद्भ्यस्तनुष्वमीढस्तोकायतनयाय मृणया मीढुष्टमशिवतम शिवो नः सुमना भव परमे वृक्ष आयुधन्निधाय कृतिम् वसा न आचर पिनाकम् बिभ्रदा गहे विकिरित विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम्हेतयोन्यमस्मन्निव पन्तु ताः सहस्राणि सहस्रदा बाहुवोस्तव हेतयः मीशानो भगवः पराशीनामुखाकृधि सहस्राणि सहस्रशो ये रुद्रा अधिभूम्या तेषागुम् सहस्रयो जने वधन्वानि तन्मसे अस्मिर्महत्यर्णवेन्तरिक्षे भवा अधे नीलग्रीवाश्रितिकण्ठाः शर्वा अधः क्षमाचराः नीलग्रीवाश्रितिकण्ठादिमगुम् रुद्रा उपश्रिताः ये वृक्षेषु सस्पिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो ऋषिकाश कपर्दिनः ये अन्येषु विविद्यन्ति पात्रेषु पिबतो जनान ये पथाम् मधिरक्षयैलभृधायव्युदः ये तीर्थानि प्रचरन्ति सृकावन्तोऽनि शङ्गिनः य एतावन्तश्च भूयागुंसश्च दिशो रुद्राविदः स्थिरे तेषागुंसहस्रयो जने वधन्वानि तन्मते नमो रुद्रेभ्यो ये पृथिव्यायेऽन्तरिक्षे ये दिव्ये शावन्नम् वाचो वर्षमिषभस्तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रदेशीर्दशोदेशीर्दशोद्वासेभ्यो नमस्ते नो मृडयन्तु तेयम् विष्मो यस्य नो द्वेष्टितम् भोजम् मे दधामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनात् मृत्योर्मोक्षीय वामृतात् यो रुद्रो अग्नौ यो अप्सु य ओषधेषु यो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् वाशा मृत्यो मत्याय हन्त मे तान्यज्ञस्य मायया सर्वानमयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो मा विशान्तकः तेनान्येनाप्यायस्व नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमुष्णु यस्विषु सुधन्वायो विश्वस्य क्षयति भेषजस्य यक्ष्वा महेशौ मनसाय रुद्रम् नमोभिर्देवमसुरम् दुवस्य अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वभेषजो यगुम् शिवाभिमर्शनः ॐ शान्ति शान्ति शान्तिः शं च मे मयश्च मे प्रियं च मेऽनु कामश्च मे कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वं च मे महश्च मे संविच्च मे ज्ञात्रं च मे सोश्च मे प्रसूच्च मे स्थिरं च मे लयश्च मरुतं च मे मृतं च मे यक्ष्मं च मे नाम यच्छ मे जीवतुश्च मे दीर्घायुत्वं च मे न मित्रं च मे भयं च मे सुगं च मे शयनं च मे सोषा च मे सुदिनं च मे ॐ शान्ति शान्ति शान्तिः भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः स्थिरैरङ्गैः सुश्रुवागुंसस्तनुभिः व्यशेम देवहितं यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॐ शान्ति शान्ति शान्तिः अथ सूर्याथर्वाङ्गिरसंव्याख्यास्यामः ब्रह्मा ऋषिः गायत्री छन्दः आदित्यो देवता हंसः सोऽहमग्निनारायणयुक्तम् बीजम् हृल्लेखा शक्तिः वियदादिसर्गसंयुक्तम् कीलकम्
चतुर्विध पुरुषार्थ सिद्ध्यर्थे विनियोगः षट्स्वरारूढेन बीजेन षडङ्गम् रक्ताम्बुज संस्थितम् सप्ताश्वरथिन हिरण्यवर्णम् चतुर्भुजम् पद्मद्वयाभयवरदहस्तम् कालचक्रप्रणेतारम् श्रीसूर्यनारायणम् य एवम् वेद स वै ब्राह्मणः ॐ भूर्भुवः सुवः तत्सवितुर्वरेण्यम् भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् सूर्य आत्मा जगतस्थस्तु षश्च सूर्याद्वै खल्विमानि भूतानि जायन्ते सूर्यायज्ञः पर्जन्योन्नमात्मा नमस्ते आदित्या त्वमेव प्रत्यक्षम् कर्म कर्तासि त्वमेव प्रत्यक्षम् ब्रह्मासि त्वमेव प्रत्यक्षम् विष्णुरसि त्वमेव प्रत्यक्षम् रुद्रोऽसि त्वमेव प्रत्यक्षम् मृगसि त्वमेव प्रत्यक्षम् यजुरसि त्वमेव प्रत्यक्षम् सामासि त्वमेव प्रत्यक्षमथर्वासि त्वमेव सर्वम् छन्दोऽसि आदित्याद्वायुर्जायते आदित्याद्भूमिर्जायते आदित्यादापो जायन्ते आदित्याज्योतिर्जायते आदित्याद्व्योमदिशो जायन्ते आदित्याद्देवा जायन्ते आदित्याद्वेदा जायन्ते आदित्यो वा एष एतन्मण्डलम् तपदे असावादित्यो ब्रह्म आदित्योऽन्तःकरणमनो बुद्धिचित्ताहङ्काराः आदित्यो वैव्यानः समानोदानोपानः प्राणः आदित्यो वै श्रोत्रत्वक्चक्षुरसनघ्राणाः आदित्यो वै वाक्पाणिपादपायोपस्थाः आदित्यो वै शब्दस्पर्शरूपरसगन्धाः आदित्यो वै वचनादानागमनविसर्गानन्दाः आनन्दमयो विज्ञानमयो विज्ञानघन आदित्यः नमो मित्राय भाणवे मृत्यो पाहि भ्राजिष्णवे विश्वहेतवे नमः सूर्याद्भवन्ति भूतानि सूर्येण पालितानि तु सूर्ये लयम् प्राप्नुवन्ति यः सूर्यस्सोऽहमेव च चक्षुर्णो देवः सविता चक्षुर्ण उत पर्वतः चक्षुर्धाता दधातुनः आदित्याय विद्महे सहस्रकिरणाय धीमहि तन्नः सूर्यः प्रचोदयात् सविता पुरस्तात् सविता पश्चात्तात् सवितोत्तरात्तात् सविता धरात्तात् सविता नः सुवतु सर्वदा तिगुम् सविता नो रासताम् दीर्घमायुः ओमित्येकाक्षरम् ब्रह्मा घृणिरिति द्वे अक्षरे सूर्य इत्यक्षरद्वयम् आदित्य इति त्रीण्यक्षराणि एतस्यैव सूर्यस्याष्टाक्षरो मनुः यः सदा हरहर्जपति स वै ब्राह्मणो भवति स वै ब्राह्मणो भवति सूर्याभिमुखो जप्त्वा महाव्याधिभयात् प्रमुच्यते अलक्ष्मीर्नश्यते अभक्ष्यभक्षणात् पूतो भवति अगम्यागमनात् पूतो भवति पतितसम्भाषणात् पूतो भवति असत्सम्भाषणात् पूतो भवति मध्याह्ने सूर्याभिमुखः पठेत् सद्योत्पन्नपञ्चमहापादकात् प्रभुच्यते यैषा सावित्रीन् विद्यान्न किञ्चिदपि न कस्मैचित् प्रशंसयेत् य एताम् महाभागः प्रातः पठति स भाग्यवान् जायते पशून्विन्दते वेदार्थम् लभते त्रिकालमेतज्जप्त्वा क्रतुशतफलमवाप्नोति हस्तादित्ये जपति स महामृत्युम् तरति स महामृत्युम् तरति य एवम् वेद इत्युपनिषद। स्वस्ति प्रजाभ्यः परिपालयन्तान् न्यायेन मार्गेण महेमहेशाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्तिः। धाता पुरस्ताद्यमुदा जहार शक्रः प्रविद्वान् प्रदिशश्चतस्रः तमेवम् विद्वान्मृत इह भवति नान्यः पन्था अयनाय विद्यते सहस्रशीर्षम् देवम् विश्वाक्षम् विश्वशम्भुवम् विश्वम् नारायणम् देवमक्षरम् परमम् पदम् विश्वतः परमानित्यम् विश्वम् नारायणगुम् हरिम् विश्वमेवेदम् पुरुषस्तद्विश्वमुपजीवते पतिम् विश्वस्यात्मेश्वरगुम् शाश्वतगुम् शिवमच्युतम् नारायणम् महाग्नेयम् विश्वात्मानम् परायणम् नारायण परो ज्योतिरात्मा नारायण परः नारायण परम् ब्रह्म तत्त्वम् नारायण परः नारायण परो ध्याता ध्यानम् नारायण परः यच्च किञ्चिज्जगत् सर्वम् दृश्यते श्रूयते पिबा अन्तर्बहिश्च तत्सर्वम् व्याप्य नारायणस्थितः अनन्तमव्ययम् कविगुम् समुद्रेन्तम् विश्वशम्भुवम् पद्मकोश प्रतिकाशगुम् हृदयम् चाप्यधोमुखम् अधो निष्ट्यावितस्यान्देनाभ्यामुपतिष्ठति ज्वालमालापुरम् भाति विश्वस्यायतनम् महत् सन्ततगुम् शिलाभिस्तुलम् वत्याकोशसन्निभम् तस्यान्ते सुशिरगुम् सूक्ष्मम् तस्मिन् सर्वम् प्रतिष्ठितम् तस्य मध्ये महानग्निर्विश्वाचिर्विश्वतोमुखः सोग्रभुग्विभजन्तिष्टन्नाहारमजरः कविः तिर्यगोर्ध्वमदशायीरश्मयस्तस्य सन्तता सन्तापयति स्वन्देहमापादतलमस्तकः तस्य मध्ये वह्निशिका अणीयोर्ध्वा व्यवस्थितः नीलतो यदमध्यस्था विद्युल्लेखे बभास्वर नीवारशोकवत्तन्वीपीताभास्वत्यनुपमा तस्याशिखाया मध्ये परमा आत्मा व्यवस्थितः स ब्रह्मस्थ शिवः सहरिस्सेन्द्रस्सोऽक्षरः परमस्वराट् ऋतगुम् सत्यम् परम् ब्रह्म पुरुषम् कृष्णपिङ्गलम् ऊर्ध्वरेतम् विरूपाक्षम् विश्वरूपाय वै नमो नमः नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात्। शान्ति शान्ति शान्तिः। भूमिर्भूम्नाद्यौर्वरिणान्तरिक्षम् महित्वा उपस्थेते देव्यदितेऽग्निमन्नादमन्नाद्यायादधे आयङ्गौ पृष्टिरक्रमीदसनन्मातरम् पुनः पितरम् च प्रयन्सुवः त्रिगुंशद्धा भविराजति वाक्पतङ्गाय शिश्रिये प्रत्यस्य वहद्युभिः अस्य प्राणादपानत्यन्तश्चरतिरोचना यक्षन्महिषः सुवः यत्वा क्रुद्धः परोवपमन्युनायदवत्या सुकल्पमग्ने तत्तव पुनस्त्वोधीपयावसि यत्ते मन्युपरोक्तस्य पृथिवीमनुदध्वसे आदित्या विश्वे तद्देवावसवश्च समाभरन् मनोज्योतिर्जुषताम् माज्यम् विच्छिन्नम् यज्ञकुम् समिमम् दधातु बृहस्पतिर्तनुतामिमम् नो विश्वे देवा इह मादयन्त मेदिनी देवी वसुन्धरा स्याद्वसुधा देवी वासवी ब्रह्मवर्चसः पितृणाश्रोत्रम् चक्षुर्मनः देवी हिरण्यगर्भिणी देवी प्रसूवरी सदने सत्यायने सीदा समुद्रवती सावित्री हनो देवी मह्यङ्गी महीधरणी महोव्यथिष्ठा शृङ्गे शृङ्गे यज्ञे यज्ञे विभीषिणी इन्द्रपत्नी व्यापिनी सुरसरिदिहा वायुवती जलशयने श्रियम् धाराज सत्यम् धोपरिमेदिनी श्वोपरिहत्तम् परिगाया विष्णुपत्नी महीम् देवी माधवी माधवप्रिया लक्ष्मी प्रियसखीम् देवीम् नमाम्यच्युतवल्लभाम् धनुर्धरायै विद्महे सर्वसिद्ध्यै च धीमहि तन्नोधरा प्रचोदयात् महीम् देवीम् विष्णुपत्नीमजूर्याम् प्रदेशे मेदागुम् हविषाय जावः त्रेधा विष्णुरुरुकाय विचक्रमे महीम् दिवम् पृथिवीमन्तरिक्षम् तच्छ्रोणै तिश्रव इच्छमाना पुण्यगुश्लोकम् यजमानाय कृण्वति ॐ अहम् रुद्रेभिर्वसोभिश्चराम्यहमादित्यैरुत विश्वदेवैः अहम् मित्रावरो नो भावि भर्म्यहमिन्द्राग्निमहमश्विनो भा अहम् सोमामाहनसम् विभर्म्यहम् त्वष्टारमुद भूषणम् भगम् अहम् दाधामि द्रवेणम् हविष्माते सुप्राव्ये ये ये यजामानाय सुन्वते अहम् राष्ट्रीये सङ्गमानी वसूना चिकितुषी प्रथमा यज्ञियाना तामान्देवा व्यादधुः पुरुत्रा भूरिस्तात्राम् भूर्याम् वेशयन्ते मया सोऽन्नामत्यया पश्याति य प्राणीति ये शृणोत्युक्तम् अमन्त होमान्त उपक्षियन्ति श्रुधि श्रोतश्रद्धिवम् ते वदामि अहमेव स्वयमिदम् वदामि जुष्टम् देवेभिरुतमानोषेभिः यम् कामयेतम् तामुग्रम् क्रीणामिदम् ब्रह्माणम् तमृषिन्तम् सोमेधा अहम् रुद्राय धनुरादानो मि ब्रह्मद्विशेषरा विहन्त वा ओ अहम् जनाय समदम् कृणोम्यहम् द्यावा पृथिवी आविवेशा अहम् सोवे पितरामस्य मूर्धन्ममयोनी लप्स्वा अन्तः समुद्रे ततो वितिष्ठे भुवनानु विष्णोताम् मून्द्य वश्मनोपस्पृशामि अहमेव वाता इव प्रवाम्यारभामाणा भुवानानि विश्वा परो दिवा पर एना पृथिव्यैता वाजि महिना सम्बा भुवा ओ शांति शांति शांतिः
निधनपतये नमः
निधनपतान्तिकाय नमः ऊर्ध्वाय नमः ऊर्ध्वलिङ्गाय नमः हिरण्याय नमः हिरण्यलिङ्गाय नमः सुवर्णाय नमः सुवर्णलिङ्गाय नमः दिव्याय नमः दिव्यलिङ्गाय नमः भवाय नमः भवलिङ्गाय नमः शर्वाय नमः शर्वलिङ्गाय नमः शिवाय नमः शिवलिङ्गाय नमः ज्वलाय नमः ज्वललिङ्गाय नमः आत्माय नमः आत्मलिङ्गाय नमः परमाय नमः परमलिङ्गाय नमः स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीम् महेशाम् गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्ति